सदानिम्ब वृक्षस्य मूलादिवासात् सुधा श्रावीणं तिक्तमाप्याप्रियतम् तरुं कल्पवृक्षाधिकं साधयातं नमामीश्वरं सद्गुरुं साईनाथं साईनाथं
क्षेत्रपुरवासी साईनाथ प्रभुवे शिरडी क्षेत्र